ಪತಿಗುಂ ಭವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವತ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನ ಶೃಣ್ವನ್ನೋತಿಭಿಃ ಸೇದಸಾಧನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಚೇಭಿರ್ವಾಜಿನೀವತಿ ಧೀನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೆ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುತತೆ ನಮಃ ಯಾತ ಇಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೆ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯಾತವತಯಾನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೆ ರುದ್ರ ಶಿವಾ ತನುರಘೋರಾ ಪಾಪಕಾಶಿನೀ ತಯಾನತ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಜಾಗಶೀ ಯಾಮಿಷುಂ ಗಿರಿಶಂತಹಸ್ತೇಭಿಭರ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಸಿಃ ಪುರುಷಂ ಜಗತ್ ಶಿವೇ ನವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾ ವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚದಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹೇಗಶ್ಚ ಸರ್ವಾಂಜಂಭಯನ್ ಸರ್ವಾತ್ತಯಾತು ಧಾನ್ಯಃ ಅಸೌವ್ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರಃ ಸುಮಂಗಳಃ ಯೇ ಚೇವಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷಶ್ರಿತಾತ್ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಡ ಈಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉದೈನಂ ಗೋಪಾ ಅದೃಶನ್ನದೃಶನ್ನದಹಾದ್ಯಃ ಉದೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾದಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಢುಷೇ ಅಧೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಕರನ್ ನಮಃ ಪ್ರಮುಂಜ ಧನ್ವನಸ್ವಮುಭಯೋ ರಾತ್ರಿಯೋರ್ಜಾಂ ಯಾಶ್ಚ ತೇ ಹಸ್ತ ಇಷವಃ ಪರಾತಾ ಭಗವೋ ವಪಾ ಅವತತ್ಯ ಧನುಸ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಸತೇಷು ಧೇ ನಿಷೇಧ್ಯ ಶಲ್ಯಾಣಾಮುಖ ಶಿವೋ ನ ಸುಮನಾಭವ ನಿಜ್ಯಂ ದನಃ ಕಪರ್ಧಿನೋ ವಿಶಲ್ಯೋ ಬಾಣಭಾಗುಂ ಉತ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಶಂಗತಿಃ ಯಾತೆ ಹೇದಿರ್ಮೀಢುಷ್ಟ ಮಹತ್ತೇ ಬಭೂವತೆ ಧನುಃ ತಯಾತ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜಾ ನಮಸ್ತೆ ಅಸ್ವಾಯುಧಾಯಾನಾತತಾಯ ದೃಷ್ಟವೇ ಉಭಾಭ್ಯಾಮುತತೆ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೆ ಧನ್ವನೋ ಏತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಧೋ ಯಹಿ ಶುಧಿಸ್ತವಾರೇ ಅಸ್ಮನ್ನಿಧೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्यं जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सत्पिञ्जराय त्विषीमते पदीनां पतये नमो नमो बभ्रुषाय व्याधिनेन्नानां पतये नमो नमो हरिकेशायोपवेदिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तताविने क्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवत्कृतायौषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते भक्तीनां पतये नमो नमः कृष्णवेताय धावते सत्त्वनां पतये नमः नमः सगमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे सेनानां पतये नमो नमो निषङ्गिण यशुधिमते तत्कराणां पतये नमो नमो वञ्चते परिवञ्चते सायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः त्रिकाविभ्यो जिगागुंसद्भ्यो मुष्णतां पतये नमो नमो सिमद्भ्यो नक्तं जरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्जानां पतये नमो नम यिषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रदिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नम सृष्टद्भ्यो धावभ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुम्हदेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपदिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतिभ्यो रथेभ्यश्च वो नमो नमो रतेभ्यो रथपतिभ्यश्च वो नमो नमः ಸೇನಾಭ್ಯಸೇನಾನಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಕ್ಷತ್ರಭ್ಯಃ ಸಂಗ್ರಹೇತೃಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಸಕ್ಷಭ್ಯೋ ರಥಕಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಕುಲಾಲೇಭ್ಯ ಕರ್ಮಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಪುಂಜಿಷ್ಟೇಭ್ಯೋ ನಿಷಾದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಗೆ ಶುಕ್ರದ್ಯೋ ಧನ್ಮಗ್ರದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಮೃಗಯುಭ್ಯಶ್ವನಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಶ್ವಭ್ಯಶ್ವಪದಿಭ್ಯಶ್ಚ ವೋ ನಮಃ ನಮೋ ಭವಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಚರ್ವಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮೋ ಮೀನಗ್ರೀವಾಯ ಚ ಶಿತಿಕಂಠಾಯ ಚ ನಮಃ ಕಪರ್ಧಿನೇ ಚ ಯುಕ್ತಕೇಶಾಯ ಚ ನಮಃ ಸಹಸ್ರಾಕ್ಷಾಯ ಚ ಶತಧನ್ವನೇ ಚ ನಮೋ ಗಿರಿಶಾಯ ಚ ಶಿಬಿವಿಟ್ಟಾಯ ಚ ನಮೋ ಮೀರುಷ್ಟಮಾಯ ಚೇಷುಮತೇ ಚ ನಮೋ ಹ್ರಸ್ವಾಯ ಚ ವಾಮನಾಯ ಚ ನಮೋ ಬೃಹತೇ ಚ ವರ್ಷೇಯಸೇ ಚ ನಮೋ ವೃದ್ಧಾಯ ಚ ಸಂವೃದ್ಧನೇ ಚ ನಮೋ ಅಗ್ರಿಯಾಯ ಚ ಪ್ರಥಮಾಯ ಚ ನಮಃ ಆಶವೇ ಚಾಚಿರಾಯ ಚ ನಮಃ ಶೀಘ್ರಿಯಾಯ ಚ ಶೇಭ್ಯಾಯ ಚ ನಮಃ ಊರ್ಧ್ವಾಯ ಚ ವಸ್ವನ್ಯಾಯ ಚ ನಮಃ ಶ್ರೋತಸ್ಯಾಯ ಚ ದ್ವೇಭ್ಯಾಯ ಚ ನಮೋ ಜ್ಯೇಷ್ಠಾಯ ಚ ಕನಿಷ್ಠಾಯ ಚ ನಮಃ ಪೂರ್ವಜಾಯ ಚ ಪರಜಾಯ ಚ ನಮೋ ಮಧ್ಯಮಾಯ ಚ ಪಗಲ್ಭಾಯ ಚ ನಮೋ ಜಗನ್ಯಾಯ ಚ ಬುದ್ಧಿಯಾಯ ಚ ನಮಃ ಸೋಭ್ಯಾಯ ಚ ಪ್ರತಿಸದ್ಯಾಯ ಚ ನಮೋ ಯಾಮ್ಯಾಯ ಚ ಕ್ಷೇಮ್ಯಾಯ ಚ ನಮಃ ಉರ್ವತ್ಯಾಯ ಚ ಘಲ್ಯಾಯ ಚ ನಮಃ ಶ್ಲೋಕ್ಯಾಯ ಚ ವಸಾನ್ಯಾಯ ಚ ನಮೋ ವನ್ಯಾಯ ಚ ಕಕ್ಷಾಯ ಚ ನಮಃ ಶ್ರವಾಯ ಚ ಪ್ರತಿಶ್ರವಾಯ ಚ ನಮಃ ಆಶುಷೇನಾಯ ಚಾಶುರಧಾಯ ಚ ನಮಃ ಶೂರಾಯ ಚ ವವಿಂದತೇ ಚ ನಮೋ ವರ್ಮಿಣೇ ಚ ವರುಧಿನೇ ಚ ನಮೋ ವಿಲ್ಮಿನೇ ಚ ಕವಚಿನೇ ಚ ನಮಃ ಶ್ರುತಾಯ ಚ ಶ್ರುತಸೇನಾಯ ಚ ನಮೋ ದುಂದುಭ್ಯಾಯ ಚ ಹನನ್ಯಾಯ ಚ ನಮೋ ಧೃಷ್ಣವೇ ಚ ಪ್ರಮೃಷಾಯ ಚ ನಮೋ ದೂತಾಯ ಚ ಪ್ರಹಿತಾಯ ಚ ನಮೋ ನಿಷಂಗಿನೇ ಚೇಷುಧಿಮತೇ ಚ ನಮಃ ಶೇಷ್ಣೇಶವೇ ಚಾಯುಧಿನೇ ಚ ನಮಃ ಸ್ವಾಯುಧಾಯ ಚ ಸುಧನ್ವನೇ ಚ ನಮಃ ಶ್ರುತ್ಯಾಯ ಚ ಪತ್ಯಾಯ ಚ ನಮಃ ಕಾಟ್ಯಾಯ ಚ ನೀಪ್ಯಾಯ ಚ ನಮಃ ಸೋಗ್ಯಾಯ ಚ ಸರಸ್ಯಾಯ ಚ ನಮೋ ನಾದ್ಯಾಯ ಚ ವೈಷಂತಾಯ ಚ ನಮಃ ಕೋಪ್ಯಾಯ ಚ ವತ್ಯಾಯ ಚ ನಮೋ ವರ್ಷ್ಯಾಯ ಚ ವಶ್ಯಾಯ ಚ ನಮೋ ಮೇಧ್ಯಾಯ ಚ ವಿದ್ಯುತ್ಯಾಯ ಚ ನಮಃ ಈಂದ್ರಿಯಾಯ ಚ ತಪ್ಯಾಯ ಚ ನಮೋ ವಾತ್ಯಾಯ ಚ ರೇಷ್ಮಿಯಾಯ ಚ ನಮೋ ವಾಸ್ತವ್ಯಾಯ ಚ ವಾಸ್ತುಭಾಯ ಚ ಓಂ ಹರ 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 ಓಂ ನಮಃ ಸೋಮಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಸಾಮ್ರಾಯ ಚ ಋಣಾಯ ಚ ನಮಃ ಶಂಗಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮಃ ಉಗ್ರಾಯ ಚ ಭೀಮಾಯ ಚ ನಮೋ ಅಗ್ರೇ ವಧಾಯ ಚ ದೂರೇ ವಧಾಯ ಚ ನಮೋ ಹಂತ್ರೇ ಜಹನೀಯಸೇ ಚ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః శేత్యాయ చ కోల్యాయ చ నమః పాద్యాయ చ వాద్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆతాద్యాయ చ లాద్యాయ చ నమః చష్ట్యాయ చ భేన్యాయ చ నమః సికత్యాయ చ ప్రవాక్యాయ చ నమః హిరణ్యాయ చ ప్రపత్యాయ చ నమః కేగం శిలాయ చ క్షయనాయ చ నమః కపర్ధినే చ పులస్తయే చ నమో గోష్ట్యాయ చ ఋక్యాయ చ నమః స్థల్ప్యాయ చ గేక్యాయ చ నమః కాట్యాయ చ గహ్వరేష్ఠాయ చ నమో హృదయాయ చ నివేష్ప్యాయ చ నమః పాగుంసవ్యాయ చ రజస్యాయ చ నమః శుష్ట్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చ లప్యాయ చ నమః ఊర్భ్యాయ చ సూర్మ్యాయ చ నమః పర్ణ్యాయ చ పర్ణశద్యాయ చ నమోపగురమాణాయ చాభిఘ్నతే చ నమః ఆఖిదతే చ ప్రఖిదతే చ నమో వక్కిరికేభ్యో దేవానాగం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్వక్కేభ్యో నమః ఆనిర్హతేభ్యో నమః ఆమీవక్కేభ్యః ద్రాపే అంధసత్పదే దరిద్రన్నీలలోహితా ఏషాం పురుషాణాం ఏషాం పశూనాం మాభేర్మారోమో ఏషాం కించ నామమత్ యాతే రుద్ర శివా తను శివ విశ్వాక భేషజీ శివా రుద్రస్య భేషజీ తయానో మృడజీవసే ఇమాగుం రుద్రాయ తవసే కపద్దినే క్షయద్వీరాయ ప్రవరామహే మతిం యథా నశమసద్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం మృడానో రుద్రో తనో మయస్కృతి క్షయద్వీరాయ నమసా విధేమతే యచ్చం చయోశ్చ మనురాయ జే పితా తదశ్యామ తవ రుద్ర ప్రణీతో మానో మహాంతముతమానో అర్భకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వధే పితరం మోత మాతరం ప్రియామానస్తనువో రుద్రరీరిషః మానస్తోకేతనయే మాన ఆయుషి మానో గోషు మానో అశ్వేషు రీరిషః వీరాన్ మానో రుద్రభామిదోపదేర్హవిష్మంతో నమసా విధేమతే ఆరాత్తే గోగ్న ఉత పూరుషగ్నే క్షయద్వీరాయ నమస్మేతే అస్తు రక్షాజనో అదిజదేవ బ్రూయతా జన శర్మ యచ్చ విబర్హా స్తుహి శ్రుతం గర్థ సదం యువానం మృగన్న భీమముపహత్వముగ్రం మృడా చరిత్రే రుద్రస్తవానో అన్యంతే అస్మన్నివ పంతు పరిణో రుద్రస్య హేతే వృణక్తు పరిత్వేషస్య దుర్మతిరధాయో నమస్తి రామగవ్యస్తనుష్మీతస్తోకాయతనయాయ మృడయా మీడుష్టమశివతమశివో నః సుమనా భవ పరమే వృక్ష ఆయుధం నిదాయ కృత్యం వసా నమాచర పినాకం విప్రదాగహే దిగిరిధ విలోహిత నమస్తే అస్తు భగవః ಯಾತ್ತೆ ಸಹಸ್ರಗುಂ ಹೇತಯೋನ್ಯಮಸ್ಮನ್ನಿವಪಂತು ತಾಹ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರದಾ ಬಾಗುವೋತ್ತವ ಹೇತಯಃ ತಾಸಾಮೀಶಾನೋ ಭಗವತ್ ಪರಾಚೀನಾ ಮುಖಾಕೃತೇ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರಾದಿಭೂಮ್ಯಾ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೆ ಬಧನ್ವಾನಿ ಧನ್ಮಸೇ ಅಸ್ಮಿನ್ ಮಹತ್ಯನ್ನವೇಂತರಿಕ್ಷೇ ಭವಾದಿ ನೀಲಗ್ರೀವಾಚಿತಿ ಕಂಠಾ ಶರ್ವಾದಃ ಕ್ಷಮಾಚರಾಃ ನೀಲಗ್ರೀವಾಚಿತಿ ಕಂಠಾದಿವಗುಂ ರುದ್ರ ಉಪಶ್ರಿತಾಃ ಯೇ ವೃಕ್ಷೇಷು ತಸ್ಮಿಂಜರಾ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತಾಃ ಯೇ ಭೂತಾನಾಮಧಿಪತಯೋ ವಿಶಿಖಾಸಃ ಕಪರ್ಧಿನಃ ಯೇ ಅನ್ಯೇಷು ವಿವಿಧ್ಯಂತಿ ಪಾತ್ರೇಷು ವಿಪದೋ ಜನಾನ್ ಯೇ ಪಥಾಂ ಪತಿರಕ್ಷಯ ಐಲಭೃತಾಯ ವ್ಯುದಃ ಯೇ ತೀರ್ಥಾನಿ ಪ್ರಜರಂತಿ ಶಿಖಾವಂತೋ ನಿಷಂಗಿಣಃ ಯೇತಾವಂತಶ್ಚ ಭೂಯಾಗುಂಸಶ್ಚ ದಿಶೋ ರುದ್ರಾ ವಿತತ್ತಿರೇ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೆ ವಧನ್ವಾನಿ ಧನ್ಮಸೇ ನಮೋ ರುದ್ರೇಭ್ಯೋ ಯೇ ಪೃಥಿವ್ಯಾಂ ಯೇಂತರಿಕ್ಷೇ ಯೇ ದಿವಿಗೇ ಶಾವನ್ನಂ ಪಾತೋ ವರುಷಮಿಷ ವಸ್ತೇಭ್ಯೋ ದಶ ಪ್ರಾಚೇರ್ದಶ ದಕ್ಷಿಣಾ ದಶ ಪ್ರದೇಶೇರ್ಗಶೋ ದೇಶೇರ್ಗಶೋರ್ಧ್ವಾತ್ತೇಭ್ಯೋ ನಮಸ್ತೇ ನೋ ಮೃಡಯಂತು ದೇಯಂ ವಿಶ್ವೋ ಯಚ್ಚ ನೋ ದ್ವೇಷಿತಂ ಭೋಜಂ ಭೇದದಾಮಿ ತ್ರ್ಯಂಬಕಂ ಯಜಾಮಹೇ ಸುಗಂಧಿಂ ಪುಷ್ಟಿವರ್ಧನಂ ಉರ್ವಾರುಕಮಿವ ಬಂಧನಾನ್ ಮೃತ್ಯೋರ್ಮುಕ್ಷೇಯಮಾಮೃತಾತ್ ಯೋ ರುದ್ರೋ ಅಗ್ನವ್ಯೋ ಅಪ್ಸು ಯೋಷಧೇಷು ಯೋ ರುದ್ರೋ ವಿಶ್ವಾ ಭುವನಾದಿವೇಶ ತಸ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು ಏತೇ ಸಹಸ್ರಮಯುತಂ ಪಾಶಾ ಮೃತ್ಯೋ ಮತ್ಯಾಯ ಹಂತವೇ ತಾಯಜ್ಞಸ್ಯ ಮಾಯಯಾ ಸರ್ವಾನವಯಜಾಮಹೇ ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಪ್ರಾಣಾನಾಂ ಗ್ರಂಥಿರತಿರುದ್ರೋ ಮಾ ವಿಶಾಂತಕಃ ತೇನಾನೇನಾಭ್ಯಾಯ ಸ್ವಾ ನಮೋ ರುದ್ರಾಯ ವಿಷ್ಣವೇ ಮೃತ್ಯುರ್ಮೇ ಪಾಹಿ ತಮಸ್ತು ಹಿಯಸ್ವಿಷು ಸುಧನ್ವಾಯೋ ವಿಶ್ವಸ್ಯ ಕ್ಷಯತಿ ಭೇಷಜಸ್ಯ ಯಕ್ಷ್ವಾ ಮಹೇಶೋ ಮನಸಾಯ ರುದ್ರಂ ನಮೋ ವಿದ್ದೇವಮಸುರಂಧುವತ್ಸ್ಯ ಅಯಂ ಮೇ ಹಸ್ತೋ ಭಗವಾನ್ ಅಯಂ ಮೇ ಭಗವತ್ತರಃ ಅಯಂ ಮೇ ವಿಶ್ವಭೇಷಜೋಯಗು ಶಿವಾಭಿಮರುಷಣಃ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಓಂ ಅಗ್ನಾ ವಿಷ್ಣು ಸಜೋಷತೇ ಮಾ ವರ್ಧಂತು ವಾಂಗಿರಃ ದ್ಯುಮ್ನೈರ್ವಾಚೇ ಭಿರಾಗತಂ ವಾಜಶ್ಚ ಮೇ ಪ್ರಸವಶ್ಚ ಮೇ ಪ್ರಯತಿಶ್ಚ ಮೇ ಪ್ರಸಿತಿಶ್ಚ ಮೇ ಧೀತಿಶ್ಚ ಮೇ ಕ್ರತುಶ್ಚ ಮೇ ಸ್ವರಶ್ಚ ಮೇ ಶ್ಲೋಕಶ್ಚ ಮೇ ಶ್ರಾವಶ್ಚ ಮೇ ಶ್ರುತಿಶ್ಚ ಮೇ ಜ್ಯೋತಿಶ್ಚ ಮೇ ಸುವಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇ ಪಾನಶ್ಚ ಮೇ ವ್ಯಾನಶ್ಚ ಮೇ ಸುಶ್ಚ ಮೇ ಚಿತ್ತಂ ಚ ಮಾಧೀತಂ ಚ ಮೇ ವಾಕ್ಚ ಮೇ ಮನಶ್ಚ ಮೇ ಚಕ್ಷುಶ್ಚ ಮೇ ಶ್ರೋತ್ರಂ ಚ ಮೇ ದಕ್ಷಶ್ಚ ಮೇ ಬಲಂ ಚ ಮಾ ಓಜಶ್ಚ ಮೇ సహశ్చ ఆయుశ్చ మే జరా చ ఆత్మా చ మే తనోశ్చ మే శర్మ చ మే వర్మ చ మే గాని చ మే స్థాని చ మే పరోగుంసి చ మే శరీరాణి చ మే జైష్ఠ్యం చ మాధిపత్యం చ మే మన్యుశ్చ మే భామశ్చ మేమశ్చ మేంభశ్చ మే దేవా చ మే ప్రహిమా చ మే వరిమా చ మే ప్రథిమా చ మే వర్ష్మా చ మే ద్రాఘుయా చ మే వృద్ధం చ మే వృద్ధిశ్చ మే సత్యం చ మే శ్రద్ధా చ మే జగచ్చ మే ధనం చ మే వశశ్చ మే ద్విషిశ్చ మే క్రీడా చ మే మోదశ్చ మే జాతం చ మే జనిష్యమానం చ మే సూక్తం చ మే సుకృతం చ మే విత్తం చ మే వేద్యం చ మే భూతం చ మే భవిష్యత్ చ మే సుగం చ మే సుపథం చ మరుద్ధం చ మరుద్ధిశ్చ మే క్లుప్తం చ మే క్లుప్తిశ్చ మే మతిశ్చ మే సుమతిశ్చ మే శం చ మే మయశ్చ మే ప్రియం చ మేను కామశ్చ మే కామశ్చ మే సౌమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే దత్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసోశ్చ మే శీరం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే నామయచ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే న మిత్రం చ మే భయం చ మే సుగం చ మే శయనం చ మే తోషా చ మే సుదినం చ మే ఊర్చ మే సోనృతా చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే మధు చ మే సగ్ధిశ్చ మే సపేతిశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే జైత్రం చ ఔద్భిద్యం చ మే రయిశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభు చ మే ప్రభు చ మే బహు చ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితిశ్చ మే కోయవాశ్చ మేనం చ మే శుచ్చ మే వ్రీహయశ్చ మే యవాశ్చ మే మాషాశ్చ మే తిలాశ్చ మే ముద్గాశ్చ మే కల్వాశ్చ మే గోధూమాశ్చ మే మసురాశ్చ మే ప్రియంగవశ్చ మే నవశ్చ మే శ్యామకాశ్చ మే నివారాశ్చ మే అశ్మాచ మే మృత్తికాచ మే గిరయశ్చ మే పర్వతాశ్చ మే శిఖతాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మే శేషం చ మే త్రపుశ్చ మే శామం చ మే లోహం చ మే అగ్నిశ్చ మాపశ్చ మే విరుధశ్చ మోషధయశ్చ మే కృష్టపత్యం చ మే కృష్టపత్యం చ మే గ్రామ్యాశ్చ మే పశవ ఆరణ్యాశ్చ యజ్ఞేన కల్పంతాం విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కర్మ చ మే శక్తిశ్చ మే అర్థశ్చ మయేమశ్చ మయితిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మ ఇంద్రశ్చ మే సోమశ్చ మ ఇంద్రశ్చ మే సవితా చ మ ఇంద్రశ్చ మే సరస్వతీ చ మ ఇంద్రశ్చ మే पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे द्योश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसश्च मे रश्मिश्च मे दाभ्यश्च मे धृपतिश्च म उपागुंसश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म अग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुर्ग्रहाश्च मेति ग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदेयाश्च मे माहेन्द्रश्च मादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्रिवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्ण्याश्च मे शुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पोतभृच्च म आधवनीयश्च म आग्नेयम् च मे हविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोराशाश्च मे पशताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मे दितिश्च मे द्वितिश्च मे द्योश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्ताम्रच्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेता गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे दित्यवाच्च मे दित्यौहि च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहि च मे पष्ठवाच्च मे पष्ठौहि च म उक्षा च मे वशा च मऋषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पतागुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम्। एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसतिश्च मे त्रयोविगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च म एकत्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मे षौ च मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मे ष्टाविगुंसतिश्च मे द्वात्रिगुंसच्च मे षट्त्रिगुंसच्च मे चत्वारिगुंसच्च मे चतुश्चत्वारिगुंसच्च मे सचत्वारिगुंसच्च मे वाजश्च प्रथवश्च पिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च बहुर्मनुर्यज्ञनिर्बृहस्पतिरुक्था मदानि शगुंसि षद्विश्वे देवासोक्तवाच पृथिविमातर्मा माहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासगुंसुश्रोषेण्या मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरो नु मदन्तो ॐ शान्ति 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 क्षय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये देवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स्वभूमिम् विश्वतो भृत्वा प्रत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतं यच्च भव्यम् उतामृतत्वस्येषा नः यदन्येनातिरोहते एतावानस्य महिमा अतो जायागुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवे त्रिपादोर्ध्व उदैत्पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्म शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वभूतः संभृतं वृषदाज्यं पशोगुस्तागुश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वभूतः वृषः सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त
ये केजो भयादतः गावो ह जज्ञिरे
तस्मात् तस्माज्जाता अजावयः यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् मुखं किमस्य कौ बाहु का ऊरुपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्य कृतः ऊरु तदस्य यद्वैष्यः पद्भ्यागुं शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसेदन्तरिक्षम् शेष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान्तरिशस्य तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानश्च चन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूत पृथिव्यैरसाश्च विश्वकर्मणः समवर्ततादे तस्य त्वष्टा विदधद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवाः सन्वशे हेष्यते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः। ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति 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 ॐ सहनावतु सहनौ भुनक्तु स्वावीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ब्रह्मविदाप्नोति परम् तदेशाभ्युक्ता सत्यम् ज्ञानमनन्तम् ब्रह्म यो वेदनिहितम् गुहायाम् परमे व्योमन् सोऽश्नुते सर्वान् कामान् सः ब्रह्मणा विपश्चितेति तस्मात्त्वा एतस्मादात्मन आकाशः सम्भूतः आकाशाद्वायोः वायोरग्निः अग्नेरापः अभ्यः पृथिवी पृथिव्या ओषधयः ओषधीभ्योऽन्नम् अन्नात् पुरुषः स वा एष पुरुषो नरसमयः तस्येदमेव शिरः अयम् दक्षिणः पक्षः अयमुत्तरः पक्षः अयमात्मा इदम् पुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति अन्नाद्वये प्रचायन्ते याकाश्च पृथिवीगश्रुताः अथो अन्ने नैव जीवन्ति अथैनदपि यन्त्यन्ततः अन्नगुम् हि भूतानाम् ज्येष्ठम् तस्मात् सर्वौषधमुच्यते सर्वम् वैते नमाप्नुवन्ति येनम् ब्रह्मोपासते अन्नगुम् हि भूतानाम् ज्येष्ठम् तस्मात् सर्वौषधमुच्यते अन्नात् भूतानि जायन्ते जातान्येन वर्धन्ते अद्यतेति च भूतानि तस्मादन्नम् तदुच्यत इति तस्माद्वा एतस्मादन्नरसमयात् अन्योन्तर आत्मा प्राणमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधता अन्वयम् पुरुषविदः तस्य प्राण एव शिरः व्यानो दक्षिणः पक्षः अपार उत्तरः पक्षः आकाश आत्मा पृथिवी पुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति प्राणम् देव अनुप्राणन्ति मनुष्या पशवश्च ये प्राणो हि भूतानामायुः तस्मायुषमुच्यते सर्वमेव तायुर्यन्ते ये प्राणम् ब्रह्मोपासते प्राणो हि भूतानामायुः तस्मात् सर्वायुषमुच्यत इति तस्येष एव शारीर आत्मा यः पूर्वस्य तस्माद्वा एतस्मात् प्राणमयात् अन्योऽन्तरात्मा मनोमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविदः तस्य यजुरेव शिरः ऋग्दक्षिणः पक्षः सामोत्तरः पक्षः आदेश आत्मा अथर्वाङ्गिरस पुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दम् ब्रह्मणो विद्वान् न बिभेति कदाचनेति तस्येष एव शारीर आत्मा यः पूर्वस्य तस्माद्वा एतस्मान्मनोमयात् अन्योऽन्तर आत्मा विज्ञानमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविदः तस्य श्रद्धैव शिरः ऋतम् दक्षिणः पक्षः सत्यमुत्तरः पक्षः योग आत्मा महपुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति विज्ञानम् यज्ञम् तनुते कर्माणि तनुतेऽपि च विज्ञानम् देवाः सर्वे ब्रह्मचेष्टमुपासते विज्ञानम् ब्रह्म चेद्वेद तस्माच्चेन प्रमाद्यते शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुत इति तस्येष एव शारीर आत्मा यः पूर्वस्य तस्माद्वा एतस्माद्विज्ञानमयात् अन्योऽन्तर आत्मानन्दमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधता अन्वयम् पुरुषविधः तस्य प्रियमेव शिरः मोदो दक्षिणः पक्षः प्रमोद उत्तरः पक्षः आनन्द आत्मा ब्रह्मपुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति असन्नेव स भवति असद्ब्रह्मेति वेद चेत् अस्तिद्ब्रह्मेति चेद्वेद सन्तमेलम् ततो विदुरिति तस्येष एव शारीर आत्मा यः पूर्वस्य अथातो नु प्रश्नाः उता विद्वानमुम् लोकम् प्रेत्य कश्चन गच्छति आहो विद्वानमुम् लोकम् प्रेत्य कश्चित् समश्नुता सोकामयत बहुस्याम् प्रजायेते सतपोतप्यत सतपस्तक्त्वा इदगुम् सर्वमसृजत यदिदम् किञ्च तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्चत्यच्छाभवत् निरुक्तम् च निरुक्तम् च निलयनम् च निलयनम् च विज्ञानम् च विज्ञानम् च सत्यम् चानृतम् च सत्यमभवत् यदिदम् किञ्च तत्सत्यमित्याचक्षते त्वदप्येष श्लोको भवति असत्त्वा इदमग्र आसीत् ततो वै सदजायत तदात्मानग्र स्वयमकुरुत तस्मात् तत्सुकृतमुच्यत इति यद्वै तत्सुकृतम् रसो वै सः रसग्रह्येवायम् लद्वानन्दे भवति को ह्येवान्या क प्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्द याति यदा ह्येवैष एतस्मिन्न दृश्येनाभ्ये निरुक्ते निलयने भयम् प्रतिष्ठाम् विन्दते अथ सो भयम् गतो भवति यदा ह्येवैष एतस्मिन्नुदरमन्तरम् कुरुते अथ तस्य भयम् भवति तत्तेव भयम् विदुषो मन्मानस्य तदप्येष श्लोको भवति भीषास्मात्वातः पवते भीषोदेति सूर्यः भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इति सैषानन्दस्य मीमागुंसा भवति युवास्यात् साधु युवाद्यायकः आशिष्ठो दृढिष्ठो बलिष्ठः तस्येयम् पृथिवी सर्वा वित्तस्य पूर्णा स्यात् स एको मानुष आनन्दः तेये शतम् मानुषा आनन्दाः स एको मनुष्यगन्धर्वानामानन्दः श्रोत्रियस्य चाकामहतस्य तेये शतम् मनुष्यगन्धर्वानामानन्दाः स एको देवगन्धर्वानामानन्दः श्रोत्रियस्य चाकामहतस्य तेये शतम् देवगन्धर्वाणामानन्दाः स एकः पितॄणाम् चिरलोकलोकानामानन्दः श्रोत्रियस्य चाकामहतस्य तेये शतम् पितॄणाम् चिरलोकलोकानामानन्दाः स एक आजानजानाम् देवानामानन्दः श्रोत्रियस्य चाकामहतस्य तेये शतमाजानजानाम् देवानामानन्दाः स एकः कर्मदेवानाम् देवानामानन्दः ये कर्मणा देवानपि यन्ति श्रोत्रियस्य चाकामहतस्य तेये शतम् कर्मदेवानाम् देवानामानन्दाः स एको देवानामानन्दः श्रोत्रियस्य चाकामहतस्य तेये शतम् देवानामानन्दाः स एक इन्द्रस्यानन्दः श्रोत्रियस्य चाकामहतस्य तेये शतमिन्द्रस्यानन्दाः स एको बृहस्पतेरानन्दः श्रोत्रियस्य चाकामहतस्य तेये शतम् बृहस्पतेरानन्दाः स एक प्रजापतेरानन्दः श्रोत्रियस्य चाकामहतस्य तेये शतम् प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामहतस्य स यश्चायम् पुरुषे यश्चासावादित्ये स एकः स एवंवित् अस्मान्लोकाग्रेत्या एतमन्नमयमात्मानमुपसङ्क्रामति एतम् प्राणमयमात्मानमुपसङ्क्रामति एतम् मनोमयमात्मानमुपसङ्क्रामति एतम् विज्ञानमयमात्मानमुपसङ्क्रामति एतमानन्दमयमात्मानमुपसङ्क्रामते तदप्येष श्लोको भवति स्वस्ति प्रजाभ्यः परिपालयन्ताम् ज्ञानेन मार्गेण महेमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु
शान्ति शान्ति शान्ति।